अयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। प्रधानमन्त्रिणा नरेन्द्रमोदिना दूरभाषया वार्तालापकाले सौदी अरेबिया देशस्य युवराजेन मोहम्मद बिन सलमान इत्यनेन सह पश्चिम एशियायाः विकसिता स्थितिः चर्चिता। श्रीमोदी सौदी अरेबिया देशस्य उपरि सद्यः एव कृताक्रमणानां निन्दाम् अकरोत्। तेषां सार्वभौमत्वस्य क्षेत्रीय अखण्डतायाः च उल्लङ्घनमिति सः वर्णितवान्। अस्मिन् दुष्करकाले भारतीय समुदायस्य सहयोगाय सलमान महोदयाय प्रधानमन्त्री धन्यवादम् अददात्। बहरीन देशस्य राजा हमद बिन ईसा खल अलीफा इत्यनेन सह अपि श्रीमोदी दूरभाषद्वारा वार्तालापम् अकरोत्। प्रधानमन्त्री जॉर्डन देशस्य राजा अब्दुल्ला द्वितीयेन राज्ञया अब्दुल्ला द्वितीयेन सह अपि वार्तालापम् कृत्वा अस्मिन् क्षेत्रे विकसितां स्थितिं प्रति गभीरं चिन्तां प्रकटितवान्। सामाजिक माध्यमे श्रीमोदी उक्तवान् यत् अस्मिन् दुष्कर समये जॉर्डन देशे भारतीय समुदायस्य परिचर्यायै सः राजानं प्रति धन्यवादं व्यहरतीति। यूएस राष्ट्रपतिना डोनाल्ड ट्रम्प इत्यनेन ईरान देशे यूएस स्थलसेनायाः नियुक्तिः निराकृता। एकया वार्तावाहिन्या सह वार्तालापं कुर्वन् श्रीट्रम्पः अवदत् यत् यदि आवश्यकं भविष्यति तर्हि विषयेऽस्मिन् विचारं करिष्यते इति। श्रीट्रम्पः अवदत् यत् पूर्वराष्ट्रपतिभिः विपरीतं सः ईरानदेशे सैनिकान् स्थापयितुं स्पष्टतया निराकरिष्यतीति। तस्मिन्नेव साक्षात्कारे श्रीट्रम्पः अवदत् यत् अभियानं नेतृत्वदृष्ट्या नियतसमयात् पूर्वमेव आसीदिति। इस्रायलदेशस्य वायुदलेनोक्तं यत् तैः अमेरिकादेशेन सह संयुज्य ईरानदेशस्य एकत्रिंशत् क्षेत्रेषु द्वादशशततोऽधिकानि युद्धोपकरणानि निक्षिप्तानीति। ईरानदेशश्च बहरीन इराक जॉर्डन कुवैत ओमान कतर सऊदी अरेबिया यूनाइटेड अरब अमीरात्स इत्यादिषु नवदेशेषु आक्रमणं प्रारब्धवान्। रेड क्रिसेंट इत्यस्य मतेन ईरानदेशे अमेरिका इज़राइल देशयोः संयुक्ताक्रमणेन सार्ध पञ्चशततोऽधिकाः जनाः मृताः। मीनावनगरस्य बालिका प्राथमिकविद्यालये प्राणघातक प्रहारः अभवत् येन प्रायः पादोन द्विशताधिकाः बालाः मृताः। एतन्मध्ये बांग्लादेशस्य विदेशमन्त्रालयः अवदत् यत् मिसाइल ड्रोन आक्रमणेषु द्वौ बांग्लादेशी जनावपि मृतौ, सप्त जनाश्च व्रणिताः सन्तीति। नागरिक विमान मन्त्रालयः अवदत् यत् इंडिगो संस्थया अद्य जेद्दाह नगरात् भारतं प्रति दश विशेष आश्वस्ति कार्याणि योजितानि सन्ति, येन अपेक्षित अनुमोदनानां विद्यमान वायुक्षेत्रस्थित्याः च अधीनं विलम्बितानां यात्रिकाणां पुनरागमनं सुकरं भवेत्। एकस्मिन् वक्तव्य मन्त्रालयः अवदत् यत् इंडिगो संस्था यात्रिकाणां सौकर्यार्थं जेद्दा नगरे भारतस्य वाणिज्य दूतावासेन सह समन्वयं कुर्वती अस्ति इति। पश्चिम एशिया देशे वर्तमानस्थितौ नागरिक विमानयान मन्त्रालयः अवदत् यत् परिचालनार्थं नियोजितानि सार्ध त्रिशताधिकानि विमानयानानि निरस्तानीति। सामाजिक माध्यमे मन्त्रालयः सूचितवान् यत् यात्रिकाणाम् उपशमनार्थं क्षेत्रस्य स्थितिं निकटतया निरीक्षते इति। प्रधानमन्त्री नरेन्द्रमोदी अद्य आर्थिक वृद्धेः सुस्थिरतायाः सुदृढीकरणम् इति विषये वेबिनाराख्यम् आभासीय सम्मेलनं सम्बोधयिष्यति। प्रधानमन्त्री कार्यालयेन सूचितं यत् आयव्ययोत्तर सत्रेऽस्मिन् औद्योगिकस्तरस्य विस्ताराय प्रौद्योगिकीय नेतृत्वं गहनं कर्तुं महत्वपूर्णक्षेत्राणाम् आधारान् सुदृढं कर्तुं च दूरदर्शीय परिष्कार प्रोत्साहनं प्रकाशयिष्यते इति। अन्ते क्रीडा वार्तायां, बैडमिंटन क्रीडायाम् अद्य बर्मिंघम नगरे अस्य वर्षस्य अखिल इंग्लैंड बैडमिंटन चैंपियनशिप इति क्रीडायां भारतं स्वस्य अभियानस्य आरम्भं करिष्यति, यत्र पञ्च प्रवर्गेभ्यः द्वादश सदस्याः प्रातिभाग्यं करिष्यन्ति इति वार्ताः।